तीव्रस्याभिवजसो अस्य पाहि सर्वरथा विहरे इह मुञ्च इन्द्रमात्मा यजमानासो अन्ये निरेरमन्तभ्यमिमे सुदासाः तुभ्यम् सुदास्तुभ्यमसात्मा आसस्त्वाङ्गिरश्वात्र्या आः पजन्ति इन्द्रेदमद्य समनञ्जुषाणो विश्वस्य विद्वाङ् इह पाहि सोमम् य उषता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति अनुस्पष्टो भवत्येष अस्य यो अस्मै रेवान्न सुनोति सोमम् निररत्नो मघवातम् दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः अश्वायन्तो गव्यन्तो वाजयन्तो हवामहेत्वोपगन्तवा आभोषन्तस्ते सुमतौ न वाजाम् भजमिन्द्रत्वाशुनम् हुवेम